आयुरासास्तेघ्यं यजमानौ सौ आयुरासास्ते सुप्रजात्वमासास्ते सजातवनस्यामासास्ते उत्थरान् देवयज्ञामासास्ते भूयोगविष्करणमासास्ते दिव्यं धामासास्ते विश्वं प्रियमासास्ते यधनेन अविशासास्ते तदस्यात्तदर्यात् तदस्मै देवरसन्तं त्वष्टा छाया अजनयद्वष्टास्वै त्वां पदिं त्वष्टा सहस्र आयुपुंषि दीर्घमायुकृणोतु मां सुमङ्गलीर्यं वटूरिमागुं समेत पश्यत सौभाग्यमस्यै तत्त्वायादार्थं विवरेदन इमान्द्रमिद्वमिद्व सुपुत्राघं सुभगाङ्गुरु दशास्यां पुत्राणादेहि पतिमेखा दशङ्कृति रोचनो रोचमानः शोभनः शोभमानः कल्याणः।